अथ हठ योग प्रदीपिका प्रथमो अध्यायः श्री आदिनाथाय नमो अस्तु तस्मै येनोपदिष्टा हठ योग वेद्या विभ्राजते प्रोन्नत राजयोगम् आरोढुमेच्छारधिरोहणीव प्रणम्य श्री गुरुनाथम् स्वात्मा रामेण योगिना केवलं राजयोगाय हठ विद्योपदिश्यते भ्रांत्या बहुमता ध्वान्ते राजयोगम् अजानताम् हठ प्रदीपिकां धत्ते स्वात्मा रामः कृपाकरः हठ विद्यां हि मत्सेन्द्र गोरक्षाद्या विजानते स्वात्मा रामो अथवा योगी जानीते तत् प्रसादतः श्री आदिनाथ मत्सेन्द्र शाबरानंद भैरवः चौरंगी मीन गोरक्ष विरूपाक्ष विलेशयाः मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कथंडे कोरंटकः सुरानन्दः सिद्धपादश्च चर्पटिः कानेरी पूज्य पादश्च नित्यनाथो निरंजनः कपाली बिंदुनाथश्च काकचंडी स्वराह्व्यः अल्लामा प्रभु देवश्च घोडाचूली च टिंटणीः भानुकी नारदेवश्च खंडः कापालिकस्तथा इत्यादयो महासिद्धा हठयोग प्रभावतः खंडयित्वा कालदंडम् ब्रह्मांडे विचरन्ति ते अशेष तप्तानां समाश्रम मठो हठः अशेष योग योक्तानां आधारकं मठो हठः हठ विद्या परां गोप्या योगिना सिद्धिम् इच्छता भवेद् वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे धनु प्रमाण पर्यन्तं शिलाग्नि जल वर्जिते एकांते मठिका मध्ये स्थातव्यं हठ योगिना अल्पद्वारमरन्ध्रगर्त विवरं नात्युनीचायतम् सम्यक् गोमय सांद्र लिप्तम् अमलम् निशेष जन्तोज्झितम् बाह्य मंडप वेदिकूपुरिचरम् प्राकार संवेष्टितम् प्रोक्तम् योगमठस्य लक्षणम् इदम् सिद्धैर्हठाभ्यासीभिः एवं विधे मठे स्थित्वा सर्वचिन्ता विवर्जितः गुरुपदिष्ट मार्गेण योगमेव समभ्यसेत् अत्याहारः प्रयासश्च प्रजल्पो नियमग्रह जनसंगश्च लौल्यं च षडभिर्योगो विनश्यति उत्साहात् साहसात् धैर्यात् तत्त्वज्ञानाच्च निश्चयात् जनसंग परित्यागात् षडभिर्योगः प्रसिद्ध्यति अथ यम नियमाः अहिंसा सत्यमस्तेयम् ब्रह्मचर्यम् क्षमाधृतिः दयार्जवम् मिताहारः शौचम् चैव यमादश तपः संतोषास्तेक्यं दानमीश्वर पूजनम् सिद्धान्तवाक्यश्रवणम् श्रीमती च तपोहुतम् नियमादश सम्प्रोक्ता योगशास्त्र विशारदैः। अथ आसनम् हठस्य प्रथमाङ्गत्वात् आसनम् पूर्वम् उच्यते। कुर्यात् तदासनम् स्थैर्यम् आरोग्यम् चाङ्गलाघवम्। वसिष्ठाद्यैश्च मुनीभिर्मत्सेन्द्राद्यैश्च योगिभिः अङ्गीकृतान्यासानानि कथ्यन्ते कानि चिन्मया। जानुर्वरन्तरे सम्यक् कृत्वा पात्तले उभे ऋजुकायः समासीनः स्वस्तिकं तत् प्रचक्षते। सव्ये दक्षिण गुल्फं तु पृष्ठपार्श्वे नियोजयेत्। दक्षिणे अपि तथा सव्यं गोमुखं गोमुखाकृति। एकं पादं तथैकस्मिन् विनस्येदूदरणे स्थितम्। इतरस्मिंस्तथा चोरुं वीरासनम् मितीरितम्। गुदं निरुद्ध गुल्फाभ्यां व्युत्क्रमेण समाहितः। कूर्मासनं भवेदेतत् इति योगविदो विदुः। पद्मासनं तु संस्थाप्य जानुर्वरन्तरे करौ। निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम्। कुक्कुटासनबन्धस्थो दोर्भ्यां सम्बध्य कन्धरां। भवेत् कूर्मवदोत्तान एतदुत्तान् कूर्मकम्। पादाङ्गुष्ठौ तु पाणेभ्यां गृहीतु श्रवणावधि। धनुराकर्षणं कुर्यात् धनुरासनम् उच्यते। वामोर्मूलार्पितदक्षपादं जानोर्बहिर्वेष्टितं वामपादम्। प्रग्रह्य तिष्ठेत् परिवर्तिताङ्गम् श्रीमत्स्य नाथोदितमासनम् स्यात्। मत्सेन्द्रपीठम् जठरप्रदीप्तिम् प्रचण्डरूपमण्डलखण्डनास्त्रम्। अभ्यासतः कुण्डलिनी प्रबोधम् चन्द्रस्थिरत्वम् च ददाति पुंसाम्। प्रसार्य पादौ भुवि दण्डरूपौ दोर्भ्यां पदाग्रद्वितीयं गृहीत्वा जानूपरिन्यस्तललाटदेशो वसेतिदं पश्चिमतानमाहुः। इति पश्चिमतानमासनाग्र्यम् पवनं पश्चिम वाहिनं करोति। उदयं जठरान् लालस्य कुर्यात् उदरे काशं मरुगतां च पुंसाम्। धरामवस्तभ्य करद्वयेन तत्कर्पूरस्थापित नाभी पार्श्वः। उच्चासने दण्डवदुत्थितः स्यान्मयूरम् एतत् प्रवदन्ति पीठम्। हरति सकलरोगनाशु गुल्मोदरादीनभि भवति च दोषनाशनम्। बहुकदशनं भुक्तं भस्म कुर्यादशेषं जनयति जठराग्निजारेत कालकूटम्। उत्तानं शववद भूमौ शयनं तच्छवासनं। सवासनं शान्तिहरं चित्तवृशान्तिकारकम्। चतुरशीत्यासनानि शिवेन कथितानि च तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम्। सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम्, श्रेष्ठं तत्रापि च सुखे तिष्ठेत् सिद्धासने तदा। योनिस्थानकम् अङ्घ्रिमूलघटितं कृत्वा दृढं विनश्यते, मीण्ड्रे पादमथैकेवं हृदये कृत्वाहनुं सुस्थिरम्। स्थाणुसंयमितेन्द्रियवचल् दृशा पश्येद्भ्रुवोरन्तरम्। हे तन्मोक्षकपाटभेदजननं सिद्धासनं प्रोच्यते। मतान्तरे तु मीण्ड्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि, गुल्फान्तरं च निक्षिप्य सिद्धासनमिदं भवेत्। एतत् सिद्धासनं प्राहुर्न्यवज्रासनं विदुः, मुक्तासनं वदन्ते के प्राहुर्गोप्तासनं परे। यमेष्विव मिताहारम् अहिंसां नियमेष्विव, मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः। चतुरशीतिपीठेषु सिद्धमेवं सदाभ्यसेत्, द्वासप्ततिसहस्राणां नाडीनां मलशोधनम्। आत्मध्यायिमिताहारी यावद्द्वादशवत्सरम्, सदा सिद्धासनभ्यासात् योगी निष्पत्तिम् आप्नुयात्। किमन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति, प्राणानिलेशावधाने बद्धे केवलकुम्भके। उत्पद्यते निरायासात् स्वयमेवोन्मणिकला, तथैकस्मिन्नेव दृढे सिद्धे सिद्धासने सति, बन्धत्रयम् अनायासात् स्वयमेवोपजायते। नासनं सिद्धसदृशं न कुम्भः केवलोपमः, न केचरी समा मुद्रा न नासदश्रूलयः। अथ पद्मासनं वामोरुपरि दक्षिणं च चरणं संस्थाप्य वामं तथा, दक्षोरुपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्। अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रं मालोकयेत्। एतद्व्याधिविनाशकारी यमिनां पद्मासनं प्रोच्यते। उत्तानौ चरणौ कृत्वा उरुसंस्थौ प्रयत्नतः, उरुमध्ये ततोत्तानौ पाणि कृत्वा ततो दृशौ। नासाग्रे विन्यसेत् राजदन्त मूले तु जिह्वया, उत्तभं चिबुकं वक्षस्य उत्थाप्य पवनं शनैः। इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनं, दुर्लभं येन केनापि धीमता लभ्यते भुवि। कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं, गाढं वक्षसि सन्निधाय चिबुकं ध्यायन् सुतच्च चेतसि। वारं वारमपानं मूर्ध्वम् अनिलं प्रोत्सार्यन् पूरितम्, न्यचिन्ताणमुपैति बोधम् अतुलं शक्ति प्रभावान्नरः। पद्मासने स्थितो योगी नाडी द्वारेण पूरितम् मारुतं धारयेद्यस्तु सा मुक्तो नात्र संशयः। अथ सिंहासनम् गुल्फौ च वृषणस्य अधः सीवन्याः पार्श्वयोः चिपेत् दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके हस्तौ तु जान्वो संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः सिंहासनं भवेदेतत् पूजितं योगी पुंगवैः बन्धत्रितय सन्धानं कुरुते चासनोत्तमम्। अथ भद्रासनम् गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः चिपेत् सव्यगुल्फं तथा सव्ये दक्षगुल्फं तु दक्षिणे पार्श्वपादौ च पाणेभ्यां दृढं बद्ध्वा सुनिश्चलम् भद्रासनं भवेदेतत् सर्वव्याधिविनाशनम्। गोरक्षासनम् इत्याहुरिदं वै सिद्धयोगिनः एवमासन् बन्धेषु योगीन्द्रो विगतश्रमः अभ्यसे नाडिकाशुद्धिं मुद्रादिपवनक्रियाम् आसनं कुम्भकं चेत्रं मुद्राख्यं करणं तथा अथ नादानुसन्धानम् अभ्यासानुक्रमो हठे ब्रह्मचारी मिताहारी त्यागी यो परायणः अब्धातूर्ध्वं भवेत् सिद्धो नात्र कार्याविचारणा। मिताहार सुस्निग्ध मधुर आहारश्च चतुर्थांश विवर्जितः भुज्यते शिव संप्रीत्यै मिताहारः स उच्यते कट्वं लतीक्ष्ण लवणोष्ण हरित शाक सौवीर तैल तिल सरसप मध्य मत्स्यान् अजादि मांस दधि तक्र कुलत कोल पिण्याखिंगुल स्नाद्यम अपथ्यम माहु भोजनम महितम वेद्यात् पुनर्जिष्योत्सृणी कृतम रुक्षम अतिलवणम अम्लयुक्तम कदशन शाकोत्कटम वर्ज्यम वहनी स्त्रीपथ सेवनम आदौ वर्जनम माचरे। तथा हि गौरक्ष वचनम् वर्जये दुर्जन प्रांतवन्हि स्त्रीपथि सेवनम् प्रातः स्नानोपोवास आदि क्लाय क्लेश विधिं तथा गोधूम शालीय व्यास्टी कोशोभनान्नम् क्षीराज्य खंडम नवनीत सिता मधुनी शुंठी पटोल कफुल्लादिक पंच शाकम मुद्गादि दिव्य मुदकम च यमींद्र पथ्यम पुष्टम सुमुदरम स्निग्धम गव्यम धातु प्रपोषणम मनोभिलषितम योग्यम योगी भोजनम माचरे। युवा वृद्धो अति वृद्धो वा व्याधितो दुर्बलो अपि वा अभ्यासात् सिद्धिमाप्नोति सर्वयोगेष्वतन्द्रितः क्रियायुक्तस्य सिद्धि स्यादक्रियस्य कथं भवेत् न शास्त्रपाठमात्रेण योग सिद्धिः प्रजायते न वेषधारणं सिद्धिः कारणं न च तत्कथा क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः पीठानि कुम्भकाश्चित्रा दिव्यानि कारणानि च सर्वाण्यपि हठाभ्यासे राजयोग फलावधि इति स्वात्मा रामस्य हठयोग प्रदीपिकायां प्रथमोपदेशः।